नमस्सर्वेभ्यः। अद्य छन्दोवर्गस्य विंशः पाठः। अद्य वयम् अनुष्टुप् वृत्तस्य विषये किञ्चित् जानीमः। वृत्तस्य लक्षणम्, उदाहरणानि च पश्यामः। अत्र प्रश्नः भवेत्, अनुष्टुप् वृत्तं वस्तुतः अत्यन्तं सामान्यतया उपयुक्तं, किञ्च लघुवृत्तमपि। वयं सामान्यतः यत् लघु लघु श्लोकान् पश्यामः, ते सर्वे अनुष्टुप् वृत्ते एव निबद्धाः। तर्हि किमर्थम् एतत् अन्ते पठ्यते इति प्रश्नः भवति। यतोहि वयं सर्वाणि समवृत्तानि अक्षरक्रमेणैव अधीतवन्तः। आदौ एकादश अक्षराणि, अनन्तरं द्वादश, चतुर्दश इत्येवं क्रमेण अधीत्य प्रतिपादम् एकविंशतिः अक्षराणि भवन्ति स्रग्धरायां, तत्पर्यन्तम् अधीतवन्तः। अनुष्टुप् छन्दसि तु अत्यन्तं न्यूनमेव, तथापि अन्ते पठ्यते। तत्र किं कारणम् इति चेत्, अनुष्टुप् इति एकं वृत्तं न, अपि तु वृत्तानां जातिः इत्युच्यते। तत्र छन्दश्शास्त्रे भिन्नानि वृत्तानि सन्ति। किल उदाहरणार्थम् इदानीम् इन्द्रवज्र, उपेन्द्रवज्र, उपजातिः, शालिनी, रथोद्धता इति भिन्नानि वृत्तानि पठितानि। तेषु सर्वेषु वृत्तेषु प्रतिपादम् एकादश अक्षराणि भवन्ति। तादृशानां सर्वेषामपि वृत्तानां समूहस्य, गणस्य एकं नाम भवति, तदेव जातिः इत्युच्यते। यस्मिन् वृत्ते प्रतिपादम् एकादश अक्षराणि भवन्ति, तत्सर्वमपि वृत्तम् एकेन नाम्ना ज्ञायते। वृत्तानां समूहः सः। तत्र वृत्तरत्नाकरे नामानि उच्यन्ते, उक्तात्युक्ता तथा मध्या प्रतिष्ठा न्यासुपूर्विका गायत्युष्टिगनुष्टुप् च बृहती पङ्क्तिरेव च, गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च, त्रिष्टुप् च जगती चैव तथाति जगतीमता, शक्वरी साति पूर्वा स्याद् अष्ट्यत्यष्टी ततः स्मृते, धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः, विकृतिः सङ्कृतिश्चैव तथातिकृतिरुत्कृतिः इति नामानि उच्यन्ते। कः अर्थः? अस्मिन् कोष्ठके द्रष्टुं शक्नुमः, यस्मिन् वृत्ते प्रतिपादम् एकमेव अक्षरं भवति, अर्थात् चत्वारः पादाः चत्वारि अक्षराणि, तेनैव समाप्यते। अत्यन्तं विरलमेव, तथापि तस्य नाम अस्ति उक्ता। एवं प्रतिपादम् अक्षरद्वयम् अस्ति चेद् अत्युक्ता, प्रतिपादम् षट् अक्षराणि सन्ति चेत् गायत्री। बहु प्रसिद्धं, वयं गायत्री मन्त्रः इति जानीमः। तत्र गायत्री इति छन्दसः नाम, यत्र प्रतिपादम् षट् अक्षराणि भवन्ति। अत एव चतुर्षु भागेषु, चतुर्षु पादेषु आहत्य चतुर्विंशतिः अक्षराणि गायत्र्याम्। गायत्री छन्दः इत्युक्ते यत्र यत्र प्रतिपादम् षट् अक्षराणि भवन्ति सा गायत्री। एवं त्रिष्टुप् मया उक्तम्, इन्द्रवज्र, उपेन्द्रवज्र, रथोद्धता, शालिनी, तेषां सर्वेषामपि वृत्तानां मिलितानाम् एकं नाम भवति त्रिष्टुप्। त्रिष्टुप् इत्युक्ते यस्मिन् वृत्ते प्रतिपादम् एकादश अक्षराणि भवन्ति। एवमेव अन्येषामपि नामानि सन्ति। इदानीं शार्दूलविक्रीडितं, तत्र प्रतिपादम् ऊनविंशतिः भवन्ति। अतिधृतिः इति उच्यते, अतिधृतिः इति छन्दसः प्रकारः, तत्र बहूनि वृत्तानि भवन्ति। शार्दूलविक्रीडितम् इति एकं प्रसिद्धतया अस्माभिः अधीतं, किन्तु अन्यान्यपि ऊनविंशत्यक्षराणि वृत्तानि भवन्ति, तेषां सर्वेषामपि अतिधृतिः इति नामधेयं भवति। एवमेव इदानीं मन्दाक्रान्ता अस्ति, शिखरिणी अस्ति, उभयोरपि प्रतिपादं सप्तदश अक्षराणि, अतः उभे अपि वृत्ते अत्यष्टि प्रकारे अन्तर्भवन्ति। एवं ఏతాని నామాని వృత్త జాతయః పృథక్ వృత్తం న అపితు వృత్తానాం సమూహః సమూహః. అత్ర పశ్యంతు అష్టమాక్షరే అనుష్టుప్ ఇత్యస్తి. అతః యస్మిన్ యస్మిన్ వృత్తే ప్రతిపాదం అష్ట అక్షరాణి భవంతి తత్ సర్వమపి అనుష్టుప్ ఇత్యేవ కథ్యతే. అతః అనుష్టుప్ ఇతి ఏకం వృత్తం న బహూనాం వృత్తానాం ఏకః సమూహః. కతి వృత్తాని సంతి తాదృశాని ఇతి చేత ఏతావంతి సంభవంతి. ద్విశతాత్ ఊర్ధ్వం షట్ పంచాశత్ ప్రభేదాః భవంతి అనుష్టుప్ వృత్తస్య. యత్ర యత్ర పాదే అష్టౌ అక్షరాణి తాని సర్వాణి అపి అనుష్టుప్పేవ. ఏతాదృశాని 256 తావంతి వృత్తాని సంభవంతి. అతః సర్వమపి అనుష్టుప్పేవ. తర్హి కస్య లక్షణం పఠామః ఇతి చేత తత్ర ప్రసిద్ధః ఏకః ప్రభేదః అస్తి తస్య శ్లోకః ఇతి నామ. వయం ఆదౌ జ్ఞాతవంతః సామాన్యతః ఛందోబద్ధం యత్కిమపి రచనం భవతి తస్య పద్యం అథవా శ్లోకః ఇతి అస్మాభిః వ్యవహారః క్రియతే. తత్తు సత్యమేవ. తథాపి ఏకస్య విశిష్టస్య వృత్తస్య నామధేయం అపి శ్లోకః ఇత్యేవ భవతి. సహ అనుష్టుప్ ప్రభేదః. తస్య లక్షణం కిం ఇతి పశ్యామః. తస్మిన్ వృత్తే సర్వేషాం అక్షరాణాం నియమనం న క్రియతే. ఇత్యుక్తే ప్రథమం లఘు ద్వితీయం గురు. పూర్వం అస్మాభిః అధీతే సర్వే అధీతే సర్వస్మిన్నపి వృత్తే తథైవ కిల. ప్రత్యక్షరం నియతం. లఘు లఘు గురు అస్తి చేదేవ సహ గణః భవతి. సహ గణః అస్తి చేదేవ తద్వృత్తం. అతః ప్రత్యక్షరం నియతమాసీత్ అస్మాభిః ఏతావతా అధీతే అధీతేషు సర్వేషు వృత్తేషు. కింతు అత్ర తథా న. అష్ట అక్షరాణి భవంతి పాదే తత్ర త్రయాణాం అక్షరాణామేవ నియమనం క్రియతే. తస్య లక్షణమస్తి పంచమం లఘు సర్వత్ర సప్తమం ద్వి చతుర్థయోః గురు షష్ఠంచ పాదానాం చతుర్ణాం స్యాద్ అనుష్టుభి. సామాన్యతః అనుష్టుభః లక్షణం ఇత్యేవ ఉచ్యతే. అనుష్టుభి అత్యంతం ప్రసిద్ధః ప్రకారః ఏషః. కః సర్వత్ర పంచమం లఘు. సర్వత్ర నామ సర్వేషు పాదేషు. చత్వారః పాదాః అత్రైవ పశ్యామః. అష్ట ఇతి చత్వారః పాదాః సంతి అష్టాక్షరయుక్తాని. తత్ర సర్వత్ర పంచమం లఘు. పంచమః వర్ణః లఘువర్ణః భవేత్. పశ్యామః. ఏకం ద్వే త్రీని చత్వారి పంచ ఘు. ఘు ఇతి లఘువర్ణః. ద్వితీయ పాదే ఏకం ద్వే త్రీని చత్వారి పంచ చ. చ ఇతి లఘువర్ణః. తృతీయ పాదే ఏకం ద్వే త్రీని చత్వారి పంచ చ ఇతి లఘువర్ణః. చతుర్థ పాదే ఏకం ద్వే త్రీని చత్వారి పంచ ద. ద ఇతి లఘు. పంచమం లఘు సర్వత్ర. సప్తమం ద్వి చతుర్థయోః. ద్వితీయ పాదే చతుర్థ పాదే చ సప్తమం లఘు. సప్తమః వర్ణః ఏషః పంచమః. షట్ సప్త ఋథ. ఋథ ఇతి లఘు. పునః అత్ర పంచ షట్ సప్త ష్టు ఇతి లఘు. పంచమం లఘు సర్వత్ర. సప్తమం ద్వి చతుర్థయోః. గురు షష్ఠంచ పాదానాం. పాదానాం ఇతి బహువచనం. అతః సర్వేషాం పాదానాం షష్ఠం గురు. పంచమం లఘు షష్ఠం గురు. అత్ర పంచ షట్ స హ్రస్వః కింతు అగ్రే రువ ఇతి సంయోగః అస్తి. అతః స ఇతి గురుః. అత్ర తు अत्रापि अग्रे ऋत्थ इति संयोगः अस्ति, एषः अपि गुरुः. पञ्च षट् पा इति गुरुः. नु अग्रे ष्टु इति संयोगः अस्ति, अतः अयमपि गुरुः. सो प्रतिपादं पञ्चमः वर्णः लघु, षष्ठः वर्णः गुरु, द्वितीये चतुर्थे च सप्तमः अपि लघु. एतावानेव नियमः. अन्ये वर्णाः यत्किमपि भवितुमर्हन्ति, लघु वा गुरु वा, तत्र अस्माकं निर्बन्धः नास्ति. एतावदस्ति चेत् तद्वृत्तम् अनुष्टुपः एकः प्रकारः भवति, श्लोकः इति कथ्यते. संस्कृतसाहित्यस्य प्रथमः श्लोकः एषः. मानिषादप्रतिष्ठां त्वम् अगमशाश्वती समाः, यत्क्रौञ्च मिथुनादेकम् अवधीः काममोहितम्. महर्षिः वाल्मीकिः केनचित् व्याधेन निहतं क्रौञ्चपक्षिणं दृष्ट्वा शोकेन तं शप्तवान्. तानि पदानि स्वयं सरस्वत्याः अनुग्रहेण छन्दोबद्धाः आसन्, स एव शोकः श्लोकत्वमागतः इति रामायणे अपि उच्यते. तस्य शोकेन जनितः एषः श्लोकः इति कथ्यते. एषः अनुष्टुप्रभेदः. अत्र तानि लक्षणानि सन्ति, पश्यामः. अत्र चत्वारः पादाः, पञ्चमम्, एकं द्वे त्रीणि चत्वारि पञ्च, प्र इति लघु, एकं द्वे त्रीणि चत्वारि पञ्च, श्व इति लघु, एकं द्वे त्रीणि चत्वारि पञ्च, थु इति लघु, एकं द्वे त्रीणि चत्वारि पञ्च, म इति लघु. पञ्चमं लघु, षष्ठं गुरु. ति अग्रे संयोगः अस्ति, अतः गुरु. तीः गुरु. ना गुरु. मो गुरु. द्विचतुर्थयोः सप्तमं लघु, स इति लघु, हि इति लघु. एवं तल्लक्षणम् अत्र युज्यते. अतः अयं श्लोकप्रकारः अनुष्टुप् इति कथ्यते. एवमेव अन्यमेकम् उदाहरणं पश्यामः. श्रीमन्महाभारतस्य मङ्गलश्लोकः एषः. नारायणं नमस्कृत्य नरं चैव नरोत्तमं, देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्. अत्रापि प्रथमपादे पञ्चमः वर्णः न लघुः, द्वितीयपादे अपि न, तृतीयपादे स्व लघुः, चतुर्थपादे मु, षष्ठं म अग्रे संयोगः अस्ति गुरुः, रो गुरुः, तीं गुरुः, दी गुरुः, द्वितीये चतुर्थे सप्तमं, त इति लघुः, र इति लघुः. एवं च इदमपि अनुष्टुवृत्तम् अथवा श्लोकवृत्तम् इति कथ्यते. वयं यत्र यत्र अनुष्टुप् छन्दसि असङ्ख्याः श्लोकाः सन्ति अथवा असङ्ख्यानि रचनानि सन्ति. वाल्मीकिरामायणं प्रायेण सर्वमपि अनुष्टुपेव. तत्र तत्र अन्येषां वृत्तानाम् उपयोगः अस्ति, किन्तु बाहुल्येन अनुष्टुप्. भगवद्गीता, महाभारतं, भागवते बहवः भागाः, अन्येषु काव्येषु रघुवंशस्य प्रथमसर्गः, एवं सर्वत्र अनुष्टुप् छन्दसः उपयोगः क्रियते. तत्र पुनः बाहुल्येन इदं लक्षणं, पञ्चमं लघु सर्वत्र, सप्तमं द्विचतुर्थयोः, गुरुषष्ठञ्च पादानां चतुर्णां स्यादनुष्टुपि अनुष्टुभि इति एतल्लक्षणं प्रायः बहुत्र अन्वेति, किन्तु सर्वत्र न. अन्ये अपि श्लोकाः भवन्ति यत्र अष्टौ अक्षराणि भवन्ति, तत्र यदि इदं लक्षणं न सङ्गच्छते त तर्हि तत् अनुष्टुभेव न इति वक्तुं न शक्नुमः. यथा ज्ञातवन्तः द्विशतादूर्ध्वं प्रभेदाः सन्ति. यत्र कुत्रापि तस्य समावेशः कर्तुं शक्यते एव. अतः अष्ट अक्षराणि यत्र सन्ति तत्सर्वमपि अनुष्टुभेव. तत्र प्रसिद्धः श्लोकप्रकारः तस्य लक्षणं सङ्गच्छते वा न वा इत्येव अस्माभिः द्रष्टुं शक्यते. तत् नास्ति चेत् तद् अनुष्टुभेव न इति वक्तुं न शक्नुमः. इत्थञ्च वयम् अद्य ज्ञातवन्तः अनुष्टुप् इति वृत्तानां जातिः भवति, यत्र प्रतिपादम् अष्ट अक्षराणि भवन्ति. अनुष्टुप् जातौ द्विशतादूर्ध्वं षट्पञ्चाशत् प्रभेदाः भवन्ति. तेषु प्रसिद्धः श्लोकनामकः भवति. तस्य लक्षणम् अस्ति पञ्चमं लघु सर्वत्र, सप्तमन्द्रि चतुर्थयोः, गुरुषष्ठञ्च पादानां, चतुर्णां स्यादनुष्टुभिः इति. अभ्यासपत्रे अनुष्टुप् श्लोकाः बहवः दीयन्ते. तेषु कुत्र इदं लक्षणम् अस्ति कुत्र नास्ति इति परीक्ष्य जानन्तु. किन्तु सर्वमपि अनुष्टुभेव, तत्र सन्देहः नास्ति.